विप्रादमानस्य मध्यात्मो धर्मरुचर्य आदात् समृत्युपाशानपणत्य घोरानिकादशे नो घृतमत्वदेवः ब्रह्म ज्योतिर्ब्रह्मपत्नीषु दर्भल्यमादधारूपम् च यन्तम् सुवर्णनम् भग्नहमर्कमर्चम् च मादुषे वृद्धया नो घृतेन श्रियम् लक्ष्मीमोपलामम् विपाम् षष्ठीम् च यानन्दसेने युदाहो विद्याम् ब्रह्मयोगम् सरूपामिधायुषे सर्पजानाघृतेन दाक्षायण्यः सर्वयोन्यः स्वयोन्यः सहस्रशो विश्वरूपाविरूपा ससो नवः सपदयः सयोच्छायुषे नो घृतमिदमिदशंसा दिव्यागनामहुरूपा पुराणायुष्ठितो न प्रमथन्त वीरान् एकप्रस्तादम् बभूवयतो बभूव भुवनस्य गोपाः यमप्येति भुवनगुण्ठाम्बराजेशरोहविहृतविराजुषे गन्धर्वागश्च पितेकश्च विश्वान् भृगो सर्पाश्चाञ्जिरसो सर्वाकृतकम् भुक्त्वा स्वादिश्यामहया शश्वते विष्णोत्पन्नो अन्तमश्चर्मयच्च सहव्य प्रदेहारामधुष्टुतमुच्छन्दः प्रते अक्षितम् ॐ शान्तिः 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 यो ब्रह्मा ब्रह्मण गुज्जहार प्राणैश्चिदहिवासाग्निनाजी ईशानो देवः स नारायणम् दधातु तस्मै जहोमिह विशाखतेन विभ्राजमानस्य निरस्य मध्यात्मोचमानो धर्मरुचर्य आगात् समृत्युपाशानपणत्य घोरानिकादशे नो घृतमत्वदेवः ब्रह्म ज्योतिर्ब्रह्मपत्नीषु दर्भल्यमादधारूपम् च यन्तम् सुवर्णनम् भग्नहमर्कमर्चम् च मादुषे वृद्धया नो घृतेन श्रियम् लक्ष्मीमोपलामम् विपाम् षष्ठीम् च यानन्दसेने युदाहो ब्रह्मयोगम् सरूपामिधायुषे सर्पजानाघृतेन दाक्षायण्यः सर्वयोन्यः स्वयोन्यः सहस्रशो विश्वरूपाविरूपा ससो नवः सपदयः सयोच्छायुषे नो घृतमिदमिदशंसा दिव्यागनामहुरूपा पुराणायुष्ठितो न प्रमथन्त वीरान् एकप्रस्तादम् बभूवयतो बभूव भुवनस्य गोपाः यमप्येति भुवनगुण्ठाम्बराजेशरोहविहृतविराजुषे देवः गन्धर्वागश्च पितेकश्च विश्वान् भृगो सर्पाश्चाञ्जिरसो सर्वाकृतकम् भुक्त्वा स्वादिश्यामहया शश्वते विष्णोत्पन्नो अन्तमश्चर्मयच्च सहव्य प्रदेहारामधुष्टुतमुच्छन्दः प्रते अक्षितम् ॐ शान्तिः 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 यो ब्रह्मा ब्रह्मण गुज्जहार प्राणैश्चिदहिवासाग्निनाजी ईशानो देवः स नारायणम् दधातु तस्मै जहोमिह विशाखतेन विभ्राजमानस्य निरस्य मध्यात्मोचमानो धर्मरुचर्य आगात् समृत्युपाशानपणत्य घोरानिकादशे नो घृतमत्वदेवः బ్రహ్మజ్యోతి బ్రహ్మపత్నీషు గర్భల్యమాదతరూపం జయంతం సువర్ణరం భగ్రమర్చంతమాదిశేవర్ధయామోఘృతేన శ్రియం లక్ష్మీమోపలానం వికాం దాష్ఠీ చయాగందసేనేందుదాహు తాం విద్యాం బ్రహ్మయోనికం సర్వామిదాదిశేసర్పజామోఘృతేన దాక్షాయణ్యః సర్వయోన్యః స్వయోన్యః సహస్రశో విశ్వరూపావిరూపా ససో నవః సపదః సయోధ్యాదిశేషో ఘృతమిదమిదశంసా దివ్యాగణామహురూపాదిష్ఠితో న ప్రమత్తంత వీరాణ తేభ్యో విబహుధా ఘృతేన వాన ప్రజాం దీర్ఘోత వీరాన్ ఏక పురస్కారైదం బభూవయతో బభూవ భువనస్య గోపా యమప్యేతి భువన గుణాం పరాజేసరోహవిహృతమిరాదిశేతుదేవాదృగ్రాణాదిత్యాదృగోక్షాగశ్చ పితేకశ్చ విశ్వాన్ భృగోత్సర్పాశ్చాంజసోసర్వాతృతృత్వాశ్వామయశ్వతేష్మాన్నో అంతమ శర్మయచ్చ సహవ్యాదేష్ఠుసంద ప్రదే అక్షితం ఓం శాంతి శాంతి శాంతిః. జహార ప్రాణే శిరహిరద్వివాసాత్మినాకీ ఈశానో దేవస్తనరాజం తథాతస్మై జహోమిహ విశాఖతేన విభ్రాజమానస్ సరిరస్య మధ్యాత్మోచమానో ధర్మరుచర్య ఆకాత్ సమృత్యుపాశానపణత్యఘోరాణి కాదశేషో ఘృతమత్వదేవః బ్రహ్మజ్యోతి బ్రహ్మపత్నీషు గర్భల్యమాదతరూపం జయంతం సువర్ణరం భగ్రమర్చంతమాదిశేవర్ధయామోఘృతేన శ్రియం లక్ష్మీమోపలానం వికాం దాష్ఠీ చయాగందసేనేందుదాహో తాం విద్యాం బ్రహ్మయోనికం సర్వామిదాదిశేసర్పజామోఘృతేన దాక్షాయణ్యః సర్వయోన్యః స్వయోన్యః సహస్రశో విశ్వరూపావిరూపాః ససో నవః సపదః సయోధ్యాదిశేషో ఘృతమిదమిదశంసాం దివ్యాగణామహురూపాదిష్ఠితో న ప్రమత్తంత వీరాన్ తేభ్యో విబహుధా ఘృతేన వాన ప్రజాం దీర్ఘోత వీరాన్ ఏక పురస్కారైదం బభూవయతో బభూవ భువనస్య గోపాః యమప్యేతి భువన గుణాం పరాజేసరోహవిహృతమిరాదిశేతుదేవాదృగ్రాణాదిత్యాదృగోక్షాగశ్చ పితేకశ్చ విశ్వాన్ భృగోత్సర్పాశ్చాంజసోసర్వాతృతృత్వాశ్వామయశ్వతేష్మాన్నో అంతమ శర్మయచ్చ సహవ్యాదేవారామదుష్టుసౌచ్ఛందప్రతేక్షితం ఓం శాంతి శాంతి శాంతిః. జహార ప్రాణే శిరహిరద్వివాసాత్మినాకీ ఈశానో దేవస్తనరాజం తథాతస్మై జహోమిహ విశాఖతేన విభ్రాజమానస్ సరిరస్య మధ్యాత్మోచమానో ధర్మరుచర్య ఆకాత్ సమృత్యుపాశానపణత్యఘోరాణి కాదశేషో ఘృతమత్వదేవః బ్రహ్మజ్యోతి బ్రహ్మపత్నీషు గర్భల్యమాదతరూపం జయంతం సువర్ణరం భగ్రమర్చంతమాదిశేవర్ధయామోఘృతేన श्रियं लक्ष्मीमो बलामं विपां दा षष्ठीं च यागन्धसेनेन्दुदाहो विद्यां ब्रह्मयोजकं सरोपामिधायुषे सत्प्रजानाघृतेन दाक्षायण्यः सर्वयोन्यः स्वयोन्यः सहस्रशो विश्वरूपा विरूपाः ससो नवः सपदयः सयोच्छायुषे नो कृतमिदमिदशंसा दिव्यागणामहुरूपा पुराणाधिष्ठितो न प्रमथन्त वीरान् ीरान् एकप्रस्तादम् बभूवयतो बभूव भुवनस्य गोपाः यमप्येति भुवनगुम्फाम्बराजे सरोहविहृतविराजुषे गन्धर्वागश्च पितैकश्च विश्वान् भृगो सर्पाश्चाञ्जिरसो सर्वाकृतकम् भुक्त्वा स्वादिश्यामहया शश्वते विष्णोत्पन्नो अन्तमश्चर्मयश्च सहव्य प्रते रामदुष्टुतरुच्छन्दः प्रते अक्षितम् ॐ शान्तिः ॐ यो ब्रह्मा ब्रह्मणगुज्जहार प्राणैश्चिदहितद्विवासाग्निनाजी ईशानो देवः सदा दधातु तस्मै दहोमिह विशासतेन विभ्राजमानस्य निरस्य मध्यात्मोतमानो धर्मरुचर्य आगात् स मृत्युपाशानपणत्य घोराणि आदशे नो घृतमत्वदेवः ब्रह्मज्योतिर्ब्रह्मपत्नीषु गर्भव्यमादतारूपम् जयन्तम् सुवर्णनम् भग्रहमर्कमर्चन्तमादुषे वर्धया नो घृतेन श्रियम् लक्ष्मीमो बलामम् विकाम् दा षष्ठीम् च यागन्धसेनेन्दुदाहो तां विद्यां ब्रह्मयोजकम् सरूपामिधायुषे सत्प्रजानाघृतेन दाक्षायण्यः सर्वयोन्यः स्वयोन्यः सहस्रशो विश्वरूपा विरूपाः ससो नवः सपदयः सयोच्छायुषे नो कृतमिदमिदशंसा दिव्यागणामहुरूपा पुराणाधिष्ठितो न प्रमथन्त वीरान् तेभ्यो युहोमि बहुधा घृतेन वानप्रजातम् नीर्गोमोत वीरान् एकप्रस्तादम् बभूवयतो बभूव भुवनस्य गोपाः यमप्येति भुवनगुम्फाम्बराजे सरोहविहृतविराजुषे तु देवः गन्धर्वागश्च पितैकश्च विश्वान् भृगो सर्पाश्चाञ्जिरसो सर्वाकृतकम् भुक्त्वा स्वादिश्यामहया शश्वते विष्णोत्पन्नो अन्तमश्चर्मयश्च सहव्य प्रते रामदुष्टुतरुच्छन्दः प्रते अक्षितम् शान्तिः ॐ यो ब्रह्मा ब्रह्मणगुज्जहार प्राणैश्चिदहितद्विवासाग्निनाजी ईशानो देवः सदायम् दधातु तस्मै दहोमिह विशासतेन विभ्राजमानस्य निरस्य मध्यात्मोतमानो धर्मरुचर्य आगात् स मृत्युपाशानपणत्य घोराणि आदशे नो घृतमत्वदेवः ब्रह्मज्योतिर्ब्रह्मपत्नीषु गर्भव्यमादतारूपम् जयन्तम् सुवर्णनम् भग्रहमर्कमर्चन्तमादुषे वर्धया नो घृतेन श्रियम् लक्ष्मीमो बलामम् विपां दा षष्ठीम् च यागन्धसेनेन्दुदाहो तां विद्यां ब्रह्मयोगम सरोपाजुषेदर्पजाघतेन दाक्षायण्यस्वयोन्यस्वयोन्यस्रहस्रशो विश्वरूपाविरूपाः ससो नवः सपदलस्तयोच्छाजुषेणो कृतमिदमिदशंसा दिव्यागणामहुरूपाष्ठितो न प्रमथन्त वीरान् भूवयतो बभूव भुवनस्य गोपाः यमप्येति भुवनगुणसाम्बराजेशोऽहविभृतमिराजिषेतुदेवाश्च पितैकश्च विश्वान् भृगो सर्पाश्चाञ्जनसो सर्वाभृतगुणभुक्त्वा स्वादिश्यामहयाश्वते विश्वात्मन्नो अन्तमश्चर्मयच्च सहव्यामदुष्टुतमुच्छन्द प्रते अक्षितम् ॐ शान्ति शान्ति शान्तिः ब्रह्मणवज्जहार प्राणैश्चिरहिरद्विवासाग्निनाजी ईशानो देवः स नराजं दधातु तस्मै जहोमिह विशासतेन विभ्राजमानः सनिरस्य मध्यात्मोचमानो धर्मर्चर्य आगात् समृद्युपादानपणत्य घोराणि आदशेनो कृतमत्वदेवः ब्रह्म ज्योतिर्ब्रह्मभक्तिषु गर्भल्यमादतारूपम् जयन्तम् स्ववर्णनम् भग्रहमर्कमर्चन्तमाजुषे वर्धया मोघृतेन श्रियम् लक्ष्मीमोपलामम् विपाम् दा षष्ठीम् च यागन्दसेने यदाहो काम् विद्याम् ब्रह्मयोगम् सरूपाभिधाजुषे सर्पजा मोघृतेन दाक्षायण्यः सर्वयोन्यस्वयोन्यस्रहस्रशो विश्वरूपाविरूपाः ससो नवः सपदलस्तयोच्छाजुषेणो कृतमिदमिदशंसा दिव्यागणामहुरूपाष्ठितो न प्रमथन्त वीरान् तेभ्योजुहोमि बहुधा घृतेन वान प्रजातम् दीर्घो मोद वीरान् एकप्रस्तादम् बभूवयतो बभूव भुवनस्य गोपाः यमप्येति भुवनगुणसाम्बराजेशोऽहविभृतमिराजिषेतुदेवाश्च पितैकश्च विश्वान् भृगो सर्पाश्चाञ्जनसो सर्वाभृतगुणभुक्त्वा स्वादिश्यामहयाश्वते विश्वात्मन्नो अन्तमश्चर्मयच्च सहव्यामदुष्टुतमुच्छन्दप्रते अक्षितम् ॐ शान्ति शान्ति शान्तिः यो ब्रह्मा ब्रह्मणवज्जहार प्राणैश्चिरहिरद्विवासाग्निनाजी ईशानो देवः स नराजं दधातु तस्मै जहोमिह विशासतेन विभ्राजमानः सनिरस्य मध्यात्मोचमानो धर्मर्चर्य आगात् समृद्युपाशानपणत्य घोराणि आदशेनो कृतमत्वदेवः ब्रह्म ज्योतिर्ब्रह्मभक्तिषु गर्भल्यमादतारूपम् जयन्तम् स्ववर्णनम् भग्रहमर्कमर्चन्तमाजुषे वर्धया मोघृतेन श्रियम् लक्ष्मीमोपलामम् विपाम् दा षष्ठीम् च यागन्दसेने यदाहो ब्रह्मयोगम् सरूपाभिधाजुषे सर्पजा मोघृतेन दाक्षायण्यः सर्वयोन्यस्वयोन्यस्रहस्रशो विश्वरूपाविरूपाः ससोनवः सपदलः सयोध्याजुषेण कृतमिदमिदशंसा दिव्यागनामहुरूपाष्ठितो न प्रमथन्त वीरान् तेभ्यो बहुधाघतेन न प्रजातं वीर्गोमोद वीरान् एकं प्रस्तादम् बभूव यतो बभूव भुवनस्य गोपाः यमप्येति भुवनगुम्फाम्बराजे सरोहविहृतविराजुषे गन्धर्वागश्च पितेकश्च विश्वान् भृगो सर्पाश्चाञ्जिरसो सर्वान् भूत्वा स्वादिष्यामः शश्वत् विष्णोत्मन्नो अन्तमश्चर्मयक्षसहव्या स्वते रामदुष्टुतमुत्सन्दः प्रते अक्षितम् शान्तिः ॐ यो ब्रह्मा ब्रह्मणगुज्जहार प्राणैश्चिरहिरद्विवासाग्निनाजी ईशानो देवः स नराजं दधातु तस्मै दहोमिह विशाशतेन विभ्राजमानस्य निरस्य मध्यात्मोचमानो धर्मरुचर्य आगात् स मृत्युपाशानपणत्य घोराणि आदिशेनो घृतमत्वदेवः ब्रह्मज्योतिर्ब्रह्मपत्नीषु गर्भव्यमादतारूपम् जयन्तम् सुवर्णनम् भग्रहमर्कमर्चन्तमादिशे वर्धया नो घृतेन श्रियम् लक्ष्मीमो बलामम्बिकाम् दाष्ठी च या वृन्दसेने ददाहो ताम् विद्याम् ब्रह्मयोगम् सरूपाभिधायुषे सर्वजामोघृतेन दाक्षायण्यः सर्वयोन्यः स्वयोन्यः सहस्रशो विश्वरूपाभिरूपाः ससो नवः सपदलः सयोध्याजुषेण कृतमिदमिदशंसा दिव्यागनामहुरूपाष्ठितो न प्रमथन्त वीरान् तेभ्यो बहुधाघतेन न प्रजातं वीर्गोमोद वीरान् एकं प्रस्तादम् बभूव यतो बभूव भुवनस्य गोपाः यमप्येति भुवनगुम्फाम्बराजे सरोहविहृतविराजुषे देवः गन्धर्वागश्च पितेकश्च विश्वान् भृगो सर्पाश्चाञ्जिरसो सर्वान् भूत्वा स्वादिष्यामः शश्वत् विष्णोत्मन्नो अन्तमश्चर्मयक्षसहव्या प्रते रामदुष्टुतमुत्सन्दः प्रते अक्षितम् शान्तिः ॐ यो ब्रह्मा ब्रह्मणगुज्जहार प्राणैश्चिरहिरद्विवासाग्निनाजी ईशानो देवः स नराजं दधातु तस्मै दहोमिह विशाशतेन विभ्राजमानस्य निरस्य मध्यात्मोचमानो धर्मरुचर्य आगात् स मृत्युपाशानपणत्य घोराणि आदिशेनो घृतमत्वदेवः ब्रह्मज्योतिर्ब्रह्मपत्नीषु गर्भव्यमादतारूपम् जयन्तम् सुवर्णनम् भग्रहमर्कमर्चन्तमादिशे वर्धया नो घृतेन श्रियम् लक्ष्मीमो बलामम्बिकाम् दाष्ठी च या वृन्दसेने ददाहो ताम् विद्याम् ब्रह्मयोगम् सरूपाभिधायुषे सर्वजामोघृतेन दाक्षायण्यः सर्वयोन्यः स्वयोन्यः सहस्रशो विश्वरूपाभिरूपाः ससो नवः सपदलः सयोध्याजुषेण कृतमिदमिदशंसा दिव्यागनामहुरूपाः पुराणाः आदिष्टि భువనస్య గోపాయమప్యేతి భువన గుంఫాదేశాగశ్చైకశ్చ విశ్వాన్ శాంతి శాంతి శాంతి.